लेखनम् अष्टमः क्रैस्तवस्य जीवनम् जीवनम् विशालमार्गेषु किं त्वं जानन्ति स्म एकः क्रैस्तवयम् अभ्यसिता किमर्थम् जीवनम् एकस्य विशालमार्गम् जनानि बृन्देषु सम्पूर्ण भवति सर्वेका मनुष्यां तस्य पापेषु पदति गच्छति स्म ईश्वरस्य पवित्रपुस्तकम् इदं विधानेषु वदति सर्वाणां पापीणां सर्वविश्वेषु एकः शब्दं यूयं समीपम् आगच्छति इदं विधानेषु वदः अहमेव समीपम् आगच्छ इदं बृहत्तरा समस्येषु अहं त्वमेषु ददति विश्रान्तं ददति त्वं मम समीपम् आगच्छ किञ्चित् जनानाम् इदं वार्तेषु न विश्वसन्ति तत् मार्गेषु चलति स्म किं केन श्रूयन्ते तत् शब्दं प्रतिध्वनि स्म तत् जनेषु त्वं बहिर्गति आगच्छ मा स्पर्शे अशुद्धा वस्तूनाम् अहमेव त्वमेषु ज्ञानं ददति अहमेव यूयं पिताः समतुल्यं यूयम् अहमेव पुत्रः च पुत्रिः किन्तु जनानि मा गच्छ तेषु किञ्चित् समयेषु श्रोणितम् अपि च पुनः तत् मार्गेषु पयनं गच्छन्ति अन्तेषु तत् बृन्देषु केन एकः मानवः पुनः आगच्छति एकः क्षणार्धं तत् मनुष्या तत् निर्णयं स्वीकरति बृहत् बृन्देना विसर्जयति एकः नूतनपन्देषु अनुसरणं कुर्वति इदानीम् एकः कठिनायी मार्गम् आसीत् तत् कठिनायी मार्गं तस्य विशालमार्गेषु विभिन्नरूपेषु अस्ति तस्य प्रजानां विसर्जितमार्गेषु प्रगच्छन्ति तत् जनाङ्गं तस्य क्लिष्टमार्गेषु प्रगच्छति मनुष्यां पश्यति तेषु अपहास्ययन्ति च वदन्ति त्वम् इदमेव पन्थेषु मा गच्छति किं न प्राप्तं कुर्वति अपि च तत् मनुष्यः इदं वार्तानि मा अनुसरणं च परिहासयन्ति इदं वचनेषु इदम् इदानी पापानि तस्य वामभागेन तत् एकः गुच्छमिव गुच्छं विधानेषु एषः बर्यन्ति स्म पुरेषु विधानम् इदं प्रथमप्रप्रथमम् इदं कठिनायी पन्थेषु इदं विधानरीति आविर्भम् तत् व्यक्तिः एकः गच्छन्ति स्म तु च अपि प्रभु ईशानां तस्य समीपेन प्रगच्छयति च तेषु गच्छतिं प्रारम्भयति श तस्य मानवः हृदयेषु इदं विधानेषु शान्तिः समाधानसन्तोषम् अपि च एषः इदं विधानेषु तत्कठिनस्य पन्थः न पुनरागमनम् ईश्वरस्य तस्य पवित्र आत्माः तेषु मनुष्याणां हृदयेषु प्रवेशति एषः द्वारेषु तत् मानवः सङ्ग्रहितम् एतः ईश्वरस्य पुत्राणां सत्यं सत्यम् अपि च तस्येषु विश्वासं कुर्वति। भवान् ईश्वरस्य पुत्रः सृष्टियन्तं प्रभु ईशानां विश्वासं कुर्वन्ति द्वारेण अपि च तेषां त्वमेव रक्षः रूपेण स्वीकरं कुर्वति तद्यम्। एवं त्वम् इदमेव भाषणानि विश्वसिति तत्समयेन त्वमेव जीवनेषु विश्वसिति नव्याकार्याणि त्वमेव अनुभवेन आगच्छयति। इदं विधानेषु एष नरः मिसेषु आगच्छ। इदं नव्यसृष्टिविधानम् अस्ति। पुरा वादनं परिच्छति स्य अपि च पश्य सर्वं सर्वेत्र नव्यम्। एषः स्वरं श्रूयन्ति अहमेव जीवनस्य अप्पम्। ईषु अपि अहमेव समीपम् आगच्छयति। तेषु नास्ति क्षुद्बादेषु किञ्चित् मानवः एवम् अहमेव विश्वासं कुर्वन्ते नास्ति पिपासा। त्वमेपि तस्य इदं समयेषु तस्य स्वरं श्रूयते। त्वमेव हृदयं नापाषाणरूपं सन्ति।